एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्री केपी शर्मा ओली शिक्षकाणाम् उचितायाः याचनायाः सम्बोधनाय सर्वकारः तत्परोऽस्तीत्यतः संवादाय शिक्षकान् अनुरोणाद्धि। काष्ठमण्डपे ह्य आयोजिते हिमालय संवाद कार्यक्रमे प्रधानमन्त्री ओली देशस्य प्राकृतिक भौगोलिक सांस्कृतिक विविधतानां राष्ट्रिय एकतायाः उपलब्धेश्च रूपेण विकासस्य आवश्यकतां प्रादर्शयत्। प्रधानमन्त्री ओली भू राजनीतेः नाम्ने कामपि त्रुटिं विना नेपालेन स्वाधीनतायै राष्ट्रहिताय च यथोचितो यत्नः विधीयते इति उदैरयत्। प्रधानमन्त्री ओली नेपालेन केनापि देशेन सह सबलत्वस्य दुर्बलत्वस्य च आधारे सम्बन्धो न क्रियते, प्रत्युत न्यायसंगतस्य स्वस्थस्य सन्तुलितस्य च सम्बन्धस्य निर्माणाय प्रयत्यते इति समस्पष्टयत्। अत्रान्तरे प्रधानमन्त्रिणा ओलिना शिक्षकाणां याचनायाः आन्दोलनस्य च विषये ह्यः सम्बद्ध मन्त्रिभिः सचिवैश्च सह विमृष्टमस्ति। प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्य सम्पन्ने विमर्शने उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः, गृहमन्त्री रमेश लेखकः, शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई, मुख्य सचिवः एकनारायण अर्यालः, सम्बद्ध मन्त्रालयानां सचिवाश्च सहभागिनः आसन्। विमर्शने गृह कार्यं विधाय वार्तायाः माध्यमेन समस्यायाः समाधानाय बलं दत्तमस्ति। विमर्शने शिक्षा मन्त्रालयस्य पक्षतः नेपाल शिक्षक महासंघस्य आह्वाने काष्ठमण्डपे सञ्चाल्यमानेन आन्दोलनेन विहितायाः याचनायाः विषये विज्ञापितमासीत्। उपवेशे विद्यमानार्थिकावस्थायाः विद्यालय शिक्षा विधि निर्माण प्रक्रियायाः सर्वकारेण तत्कालमेव विधातुं शक्यानां कार्याणां गुणस्तरीय शिक्षा सुनिश्चिततायाश्च विषये विमृष्टमासीत्। राष्ट्रिय स्वतन्त्र दलस्य सभापतिः गोर्खा मीडिया नेटवर्क संस्थायाः तात्कालिकः प्रबन्ध निर्देशकश्च रवि लामिछाने कारागारे प्रेषितोऽस्ति। दिनद्वयं यावत् रूबन्देही जनपद प्रहरी कार्यालये उपस्थापितः लामिछाने ह्य जनपद कारागारं प्रापित आसीत्। ततः जनपद न्यायालये प्रस्तुत्य आवश्यकीं प्रक्रियां पूरयित्वा लामिछाने कारागारे सम्प्रेषितोऽस्ति। लुम्बिनी प्रदेश सर्वकारेण सिंचन पूर्वाधार विकासे उल्लेखनीय प्रगतिर्विहितास्ति इति ज्ञापितं वर्तते। प्रदेश सर्वकारस्य ऊर्जो जलस्रोत सिंचन मन्त्रालयस्य अनुसारेण प्रदेशे सम्प्रति त्रिउत्तर चतुश्शत सिंचन जलबन्धः मूलस्रोतांसि च द्वात्रिंशदधिकाष्टशत किलोमीटर परिमितानि कुल्यानि च निर्मितानि सन्ति। जलान्तरण सिंचन प्रणाल्यां सप्तोत्तर शत संख्याता आयोजना सञ्चाल्यमाना सन्ति। नलिका मार्ग विस्तारे सप्तचत्वारिंशदधिक सप्तशत किलोमीटर परिमिता नलिका मार्ग विस्तारिता सन्ति इति मन्त्रालयेन ज्ञापितं वर्तते। लुम्बिनी प्रदेशे प्रतिशतं पञ्चपञ्चाशति भूभागे सेचन सौविध्यं विस्तारितमस्ति इति प्रदेश सर्वकारेण ज्ञापितमस्ति। लुम्बिनी प्रदेशस्य ऊर्जो जलस्रोत सिंचन मन्त्रालयेन एतद् विक्रमवर्षीयस्य सेचन दिवसस्य अवसरे आयोजिते कार्यक्रमे मुख्यमन्त्री चेतनारायण आचार्यः पुष्करिणीनां निर्माणेन वर्षा जलं संकलय्य सिंचनार्थं पेयार्थं च उपयोक्तुं क्षेमाणां योजनानाम् अग्रेसारणेन जलस्य न्यूनतायाः समस्याः परिहर्तुं शक्यते इति उदैरयत्। भौतिक पूर्वाधार यातायात मन्त्री देवेन्द्र दाहालः भाषते गृहमन्त्रालयेन सह समन्वयं विधाय मानदण्ड विपरीतानां यानानां सञ्चालने प्रतिबन्ध विधास्यते। मन्त्रालये यातायात व्यवसायीभिः श्रमिकैश्च सह ह्य विहिते विमर्शने मन्त्री दाहालः नियम विपरीतं सञ्चालितेषु यातायात साधनेषु प्रतिबन्धार्थं केवलेन मार्ग विभागे यातायात विभागे न शक्यते इत्यतः गृहमन्त्रालयेन सहापि समन्वय विधास्यते इति अवदत्। नवलपरासी जनपदस्य दाउन्ने मार्गखण्डे विधीयमानस्य निर्माणस्य कारणेन यातायात साधनानां यात्रिणां च समस्यां प्रति मन्त्रालयः गभीरोऽस्ति इति चर्चयन् अस्य मार्गखण्डस्य निर्माणं प्राथमिकतायामस्तीत्यतः शीघ्रमेव यातायात व्यवस्था सहजा सरला च भविष्यति इति असौ अगदत्। विपद संकट न्यूनीकरण व्यवस्थापन राष्ट्रिय परिषद उपवेशन पश्चिम नेपाले दूरापन्नस्य भूकम्पस्य अस्य वर्षस्य वर्षाजन्यानां विपदाम् अनन्तरं पुनर्निर्माणस्य पुनस्थापनायाश्च योजनायाः क्रियान्वयनस्य अवस्थायाः समीक्षा विहिता अस्ति। प्रधानमन्त्रिणः केपी शर्मा ओलिनः अध्यक्षतायां सिंहप्रासादे ह्यः उपविष्टे उपवेशे गतस्य पौषमासस्य अष्टाविंशे दिवसे उपवेशेन स्वीकृतायाः तस्याः योजनायाः विषये ज्ञापितमासीत्। उपवेशेन दावानलेन दावानलस्य कारणेन च जातस्य वायु प्रदूषणस्य स्थितिं विचार्य दावानलस्य नियन्त्रणाय निवारणाय च गृहमन्त्रालयाय वनवातावरण मन्त्रालयाय प्रदेश सर्वकारेभ्य स्थानीय सर्वकारेभ्यश्च निर्दिष्टमस्ति। उपवेशे प्रधानमन्त्री केपी शर्मा ओली पुनर्निर्माणस्य पुनस्थापनायाश्च कार्येष् प्राधिकरणस्य गतिं वर्धयितुं बलं दत्तवान्। प्रधानमन्त्री केपी शर्मा ओली निगदति धरारनगरवासिभ्य पेयजल प्रदानस्य प्रक्रिया अग्रेसारिता अस्ति। सिंहप्रासादवर्तिनि प्रधानमन्त्री मन्त्रिपरिषद कार्यालये ह्य सुनसरी जनपदस्य धरानुपमहानगरपालिकाया प्रमुखेण हर्कराज राई इत्यनेन सहित प्रतिनिधिभिः सह मेलने प्रधानमन्त्री ओली धरारनगरवासिभ्य पेयजलं प्रापयितुं संघीय सर्वकारेण वित्तसहितेषु अन्येषु विषयेषु च सहजीकरणं विधास्यते इति अगदत्। म्याग्दी जनपदस्य अन्नपूर्ण हिमालये हिमस्खलने निपत्य द्वौ जनौ विलुप्तौ स्तः। अन्नपूर्ण हिमालयस्य द्वितीय तृतीययोः आधार शिविरयोः मध्यभागे हिमस्खलनेन सोलुखुम्बु जनपदस्य रीमा शेर्पा निमाटासी शेर्पा च ह्यस्तनात् दिवसात् विलुप्तौ स्त इति सेवेट समिट ट्रेकिंग एजेन्सी संस्थायाः संचालक निङ्मा शेर्पा असूचयत्। आधार शिविरे विद्यमानः अन्य शेर्पा जनाश्च तयोः अन्वेषणे संलग्ना सन्ति। काष्ठमण्डपात् उद्धार समूहश्च हेलिकप्टर यानेन तयोः अन्वेषणाय प्रेषितोऽस्ति इति असौ असूचयत्। सबलस्य सुरक्षितस्य च यातायातस्य नीति निर्माण प्रारूप निर्माणार्थं सहयोगस्य उद्देश्येन अस्यैव चैत्र मासस्य ऊनत्रिंशत् दिवसात् एकत्रिंशं दिवसं यावत् तृतीयम् अन्तर्राष्ट्रिय यातायात सम्मेलनम् आयोक्ष्यते। इति समाचारः।